सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति पञ्चमी विभक्ति इति. तत्र पञ्चमीविभक्तेः रूपं दृष्टवन्तः अपि, केचन प्रयोगाः अपि अस्माभिः दृष्टाः. किन्तु इदानीं तत्र तः पर्यन्तम् अपि वारम् अध्यारभ्य इति तादृशप्रयोगाः अपि अवशिष्टाः सन्ति. तान् प्रयोगान् दृष्ट्वा अग्रे गच्छामः. तत्र पुटसङ्ख्या 125 मध्ये
कथा अस्ति न महोदय, कथा न पठितम्. एकमेव द्वे कथे
पठितवन्तः भगिनि.
महोदय, परन्तु
अन्यापि कथा अस्ति अत्र इति वा? कथात्रयं सत्यं, कथात्रयम् अस्ति. किन्तु इदानीं तत्र अहं द्वितीयपुटे केवलं तत् लघुकथा एव पठितुम् इष्टवान् तत्र.
अस्तु महोदय.
किन्तु कदापि तद् अन्या कथा अपि पठामः. किन्तु इदानीं मास्तु.
अस्तु महोदय.
किन्तु सत्यं, तत्र अन्या कथा अपि अस्ति, सत्यमेव. अस्तु, तर्हि इदानीं तत्र वंशीसुत भगिनी वा?
नमस्ते महोदय. क्षम्यताम्, अधुना दशनिमिषं सह अहं वक्तुं न शक्नोमि, अनन्तरं वदामि महोदय.
अस्तु अस्तु भगिनि, अस्तु अस्तु, चिन्ता मास्तु, चिन्ता मास्तु.
शुभकार्यम् अस्ति.
अस्तु अस्तु भगिनि, चिन्ता मास्तु, चिन्ता मास्तु. समीचीनमेव. नमस्कारः नरेश महोदय. नमस्कारः.
नमस्कारः महोदय.
नमस्कारः. अस्तु, तर्हि तत्र कथायाः विषये किञ्चित् कोऽपि वदति वा? तत्र कथाद्वयमासीत् तत्र. तस्मिन् विषये दशनिमिषे किञ्चित् समयं चर्चां कृत्वा अग्रे गच्छामः. तत्र कथायाः विषये तत्र कथाद्वयमासीत् खलु तत्र. अस्तु, प्रथमपुटे तत्र कथा आसीत् तत्र परम सन्तृप्तः कः इति. अस्तु, तत्र कोऽपि अस्तु, अहमेव पृच्छामि, तत्र पश्यामः. तत्र उषा भगिनी, तत्र किञ्चित् वदति वा?
आं महोदय.
वाक्यत्रयम् अथवा वाक्यचतुर्थं किञ्चित् तत्र कथायाः सारांशः किम् अस्ति, सुमतेः कथा.
आं महोदय. काशीराज्ये कस्यचित् ग्रामे एकः निर्धनः सुमती नामः एकः निर्धनः वसति आसीत्. सः भिक्षेन एव जीवनं करोति. परन्तु
कथा मास्तु भगिनि, लघुरूपेण वदतु. तत्र पूर्णकथा भवति चेत् वर्गं भवति, किन्तु लघुरूपेण. अस्तु, सुमती इति एकः निर्धनः पूर्वम् आसीत्. सः, तस्य आशयः कः आसीत्?
तस्य आशा अस्ति जीवने परमसुखी कः इति
ज्ञातव्यम् इति आशयः आसीत्. अस्तु, अतः सः किं कृतवान्?
अतः सः एकदिन देवालयं गत्वा तत्र अमूल्यवस्त्राभरणभूषितः पुरुषः
धनिकः
दृष्ट्वा पृच्छन्
पृष्टवान्
जीवने भवतः जीवनं सुखमयम् अस्ति वा न इति.
अतः धनिकः किं वदति?
धनिकः वदति, मम पार्श्वे सन्तानभाग्यं नास्ति,
अतः अहं
न
सुखी, अहं न सन्तुष्टः इति सः उक्तवान्
अस्तु सः उक्तवान्
समीचीनं भगिनि धन्यवादः अस्तु अग्रे उमा मीनाक्षी भगिनि अग्रे किम्
भवान् तु संक्षिप्तया उक्तवान्
संक्षिप्तया
सः तु अन्यान् अपि तदेव पश्यति कुत्ते का पूत् इट् कम्स् बेक् टु हिम्
सत्यं सत्यं न किन्तु तत्र सोपानेन गच्छामः
न महोदय अन्तिम किं मनुष्यः अथवा पुरुषः यः वदति तस्य नाम एव वदति तत्र गच्छतु सः एव अत्यन्तसुखी
इति
तदा एव तस्य मनसि आगतम् ओके कुत्रापि अन्वेषणं कर्तुं
करणीयं नास्ति मम जीवनं सुखमयमेव अस्ति इति सः निर्धारं कृतवान् निर्धारम् इति डिसैडेड् इति निश्चयं कृतवान् अथवा निश्चयेन ज्ञातवान् श्रूयते भगिनि शुभ भगिनि वदतु भगिनि
नमस्ते महोदय
नमस्ते भगिनि वदतु भगिनि
पूर्वं अवदं किन्तु न श्रूयते तत् कारणेन
अस्तु भगिनि तत्र भवती तत्र अस्यां कथा अस्याः कथायाः विषये किञ्चित् वक्तुम् इच्छति वा सुमतिः अथवा द्वितीयकथायाः विषये तत्र मुद्गलः इति महर्षिः
एकः महर्षिः आसीत् मुद्गलः इति तस्य नाम सः कृषकाणां धान्यानि पतितानि धान्यानि स्वीकृत्य उञ्चवृत्या तस्य स्वस्य जीवनयापनम् अपि च अतिथीनां सत्कारमपि करोति स्म दूर्वासमहर्षि तस् मुद्गलस्य चित्तवृत्तेः परीक्षां कर्तुम् इष्टवान् सः षड्वारं मुद्गलस्य चित्तवृत्तेः कृते षड्वारं परीक्षां कृतवान् षड्वारमपि मुद्गलस्य जयः जयः प्राप्तवान् येषां वार्तां देवः श्रुत्वा मुद्गलस्य कृते विमानं प्रेषितवन्तः तं स्वर्गम्
आनेतुं
किन्तु देवदूतैः सह मुद्गलः एवं पृच्छति तत्र
देवदूतान् पृच्छति अथवा देवदूतैः सम्भाषणसमये
देवदूतान् पृच्छति तत् स्वर्गे किम् अस्ति
इति
ते वदन्ति सकलभोगान् सन्ति तत्र इति वदन्ति किन्तु मुद्गलः परिश्रम करणीय नास्ति चेत् अहम् आगन्तुं न इच्छामि
इति वदति तस्य कारणं सः किमर्थम् एतादृशं चिन्तनं सः किमर्थम् एतादृशं वाक्यं वदति
सः परिश्रमं कर्तुमेव इच्छति
तस्य चिन्तनं किं तत्र परिश्रमात्
कोऽपि अन्य आनन्दः नास्ति इति
तस्य उपरि तस्य
स्वर्गसुखात् श्रेष्ठतरः तादृशं पदम् अस्ति
श्रेष्ठतरः श्रेष्ठतरः
श्रेष्ठतरः परिश्रमः इति तस्य चिन्तनम्।
हा, परिश्रमात् यः आनन्दः भवति सः श्रेष्ठतरः अस्ति स्वर्गसुखात्। स्वर्गसुखस्य अपेक्षया परिश्रमात् यः आनन्दः लभते सः
सः
श्रेष्ठः
सः श्रेष्ठः इति
तस्य चिन्तनं। समीचीनं भगिनि। हा अस्तु अस्तु, तर्हि तत्र सर्वे अवगतवन्तः इति मन्ये, तत्र कथाद्वयं यत् आसीत्। अस्तु तर्हि अग्रे गच्छामः। कथायाः विषये कोऽपि प्रश्नः अस्ति वा?
अस्तु,
तत्र कथायाः पठने बहु लाभः अस्ति। तत्र प्रथमवारं यदा पठामः तत्र अस्माकं चिन्तनं किं भवति, अस्तु एतस्य पदस्य अर्थः जानीमः न वा इति भवति। द्वितीयवारे यदा पठामः, अस्तु एतत् सर्वं प्रत्येकपदस्य अर्थः मया ज्ञातः, किन्तु इदानीं तत्र वाक्यस्य अर्थः अपि किम् अर्थः कः इति तदपि किञ्चित् भवति। किन्तु तदनन्तरं कथायाः अर्थः तदपि तस्य बोधनम् अपि भवति। किन्तु तदनन्तरं किं करणीयम्? इदानीं कथायाः अवगमनम् अभवत् अस्माकं, किन्तु इदानीमपि तत्र कथायाः पठने लाभः अस्ति। किमर्थं, कः लाभः इत्युक्ते, कीदृशवाक्यानि रचितुं शक्नुमः वयं संस्कृतभाषायाम् इति। तत्र अत्र अनेकानि उदाहरणानि सन्ति, तत्र तादृशानि वाक्यानि वयमपि रचितुं प्रयत्नं कुर्मश्चेत् बहु लाभः अस्ति। अतः केवलं कथायाः पठने तत्र विषयः कः इति न, किन्तु शैली, संस्कृतभाषायां कीदृशशैली अस्ति, कथं वयं वदामः, कथं वयं सम्भाषणं कुर्मः, कथं वयं किमपि प्रदर्शयामः, एतत् सर्वं कथायाः पाठनेन अस्माकं मनसि स्थापितः भवति। अस्तु तर्हि अग्रे गच्छामः। इदानीं पेज् 125 तत्र गच्छामः, गीतासोपाने तत्र श्लोकद्वयम् अस्ति, तद् श्लोकमपि तदनन्तरम् अपि लघुश्लोकः अस्ति, तदनन्तरं तः पर्यन्तम् इति तस्य विषयः भवति। अस्तु तर्हि तत्र रघुपतिमहोदय तत्र पठति वा तत्र प्रथमश्लोकः?
एतान् श्लोकान् उच्चैः पठत। विद्या ददाति विनयं, विनयाद्याति पात्रताम्, विनयाद्याति पात्रताम्, पात्रत्वात् धनमाप्नोति, धनाद्धर्मततःसुखम्। विद्या नराय विनयगुणं ददाति, विद्या ददाति विनयं, विनयात् याति पात्रतां, तेन सह नरः अर्हतां प्राप्नोति, पात्रत्वात् धनमाप्नोति, ततः धनं प्राप्नोति, धनात् धर्मः धर्मं, धनेन धर्मकार्याणि, ततः सुखं, धनेन धर्मकार्याणि कृत्वा सः पुण्यं प्राप्नोति इति श्लोकस्य अर्थः।
श्लोकस्य अर्थः समीचीनं महोदय। तत्र पञ्चमीविभक्तिरूपं कुत्र कुत्र अस्ति तत्र?
हा, विनयात् याति पात्रताम्, पात्रत्वात् इति पात्रत्वात्, धनात् धर्मम्, ततः इति, तदपि पञ्चमीरूपं।
समीचीनं
महोदय। अर्हताम् इत्युक्ते किं महोदय?
तेन सह नरः अर्हताम्, अर्हताम् इत्युक्ते योग्यता,
अर्हता, योग्यता, अर्हः भवति।
किमपि करणीयं चेत् तत्र, हा तत्र एकस्य देशस्य प्रधानमन्त्री भवितव्यं चेत् कोऽपि अर्हता अपेक्षिता अस्ति खलु, आधुनिककाले नास्ति किन्तु पूर्वस्मिन् काले आसीत् खलु तादृशः तत्र अर्हता किमपि भवति कोऽपि अध्यापिका अस्ति चेत् सः अध्यापिका भवितुम् अर्हति वा इति पृच्छामः अध्यापिका भवितुम् अर्हति वा तत्र अर्हता अस्ति न वा इति उषा भगिनि समीचीनं ततः धनं धनेन धर्मकार्यं सः पुण्यं प्राप्नोति इति धर्मकार्याणि कृत्वा इति अस्तु अग्रे तत्र अरुणा भगिनी अग्रिमश्लोकं पठति वा अन्नात् अन्नात् भवति
अन्नात् भवति
भूतानि
पर्जन्यात् अन्नसम्भवः यज्ञात् भवति
कर्मसमुद्भवः तत्र अधोभागे अर्थः अपि दत्तः
सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्य जीवनं कर्तुं शक्नुवन्ति अन्नं तु वृष्टिकारणेन भवति यज्ञः दानं सत्कार्याणि एव वृष्टेः उत्पादने कारणानि
हा इति अतः अन्नात् भवन्ति भूतानि तत्र तत्र तद् तस्य भागस्य अर्थः कः
अन्नात् पञ्चमी
हा अन्नात् अन्नात् भवन्ति
भूतानि भवन्ति भूतानि जनाः देवाः जीवन्ति
जीवन्ति तत्र अतः तस्य भागस्य अर्थः तत्र सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्य जीवनं कर्तुं शक्नुवन्ति इति हा अस्तु अग्रिम पादः तत्र पर्जन्यात्
अन्नसम्भवः
पर्जन्यात् अन्नसम्भवः वृष्टिकारणेन
अन्नं
भवति अन्नं भवति अन्नं वृष्टि विना वृष्टि अन्नं न सम्भवति अतः अन्नं तु वृष्टिकारणेन एव भवति इदानीं तृतीयपादः
पर्जन्यः यज्ञः कर्मसमुद्भवः पर्जन्यस्य कारणं यज्ञादि सत्कार्याणि
एव सत्कार्याणि यज्ञः दानं सत्कार्याणि एव वृष्टेः उत्पादने कारणानि अस्तु तर्हि तत्र नरेश् महोदय नमस्कारः तत्र अर्थः अस्ति खलु सर्वे अपि जीवाः अन्नस्य कारणेन एव इति तत्र अर्थस्य अर्थे कीदृशविभक्तयः सन्ति इति किञ्चित् वदति वा सर्वे अपि तत्र सर्वे इति प्रथमविभक्ति
सर्वे प्रथमाविभक्ति अपि अव्ययः अस्ति अव्ययम् अस्ति जीवाः प्रथमविभक्ति बहुवचनम् अन्नस्य षष्टिविभक्ति एकवचनं कारणेन तृतीयविभक्ति एकवचनं एव अव्ययं जन्म प्रथमविभक्ति
तत्र कारणेन जन्म प्राप्य प्राप्य इति किं प्राप्यति किं प्राप्य इति ल्यबन्तरूपं किं प्राप्नोति इति प्रश्नस्य उत्तरमस्ति जन्म इति अतः कर्मपदम् अत्र द्वितीयविभक्ति
जीवनम् अपि कर्मपदं
हा समीचीनं
कर्तुं
तुमुन्
शक्नुवन्ति
क्रियापदम् इति
क्रियापदं बहुवचनं
बहुवचनं के शक्नुवन्ति सर्वे जीवाः शक्नुवन्ति इति कर्तृपदं क्रियापदं तदनन्तरं मध्ये दीर्घवाक्यम् अस्ति. समीचीनं महोदय, धन्यवादः. तदा तादृश एव अग्रिमवाक्यमपि करोति वा?
अन्नं तु वृष्टिकारणेन भवति. अन्नं कर्मपदं तु अव्ययं वृष्टिकारणेन द्वितीयविभक्ति एकवचनं भवति क्रियापदम्.
तत्र अन्नमिति कर्तृपदं अन्नं भवति वृष्टिकारणेन भवति इति. समीचीनं महोदय, धन्यवादः. अस्तु, तत्र उषा भगिनी, तत्र वृष्टिः इति अस्ति खलु, वृष्टिकारणेन इति अस्ति खलु, तत्र वृष्टिः अस्ति. वृष्टिः इति वृष्टिपदस्य लिङ्गं कोऽपि जानाति वा? वृष्टिः स्त्रीलिङ्गपदम् इति मन्ये खलु.
वृष्टिः मतिशब्दवत् अस्ति वा?
मतिशब्दवत् अस्ति. समीचीनम्. अस्तु, तस्य पञ्चमीविभक्तिः किम् अस्ति? मतेः अथवा मत्याः इति. तत्र कारणपञ्चमीति वदामः. तत्र किमपि भवति चेत् अस्मात् कारणात् अथवा अस्मात् कारणात् इति तादृशरूपम् अत्र वक्तुं शक्नुमः वा?
वृष्टिकारणेन
अन्नं भवति, अन्नं भवति, किन्तु कारणेन इति न उक्त्वा वृष्टिः कारणम् अस्ति. कारणं वक्तुम् इच्छामश्चेत् तत्र पञ्चमी विभक्ति स्थापयामः. वृष्टिः पदस्य पञ्चमी विभक्ति किम् अस्ति?
वृष्टेः.
वृष्टेः अन्नं तु भवति इति भवति. समीचीनं वा?
कारणपञ्चमी अस्ति वा महोदय?
कारणपञ्चमी. तत्र पञ्चमीभक्तिरूपं तत्र कारणमिति वक्तुम् इच्छामश्चेत् तत्र कारणपदस्य यत् कारणमस्ति तस्य पदस्य पञ्चमीभक्तिरूपं स्थापयामश्चेत् तद् भवति पञ्चमीभक्ति. कारणपञ्चमी इति उच्यते तत्र. अतः कस्मात् कारणात् एतद् एषः एतादृशकार्यं कृतवान्, कस्मात् कारणात् एतत् एषः कृतवान् इति. तत्र कस्मात् कारणात् इति, अतः तत्र कारणं किम् इति पञ्चविभक्तिरूपं प्रदर्शयति. अत्र कारणम् अस्ति वृष्टिः, अतः वृष्टेः अन्नं भवति इति. समीचीनम्. अस्तु, तत्र
एकः प्रश्नः अस्ति महोदय. अन्नम् इत्युक्ते सर्वाणि पदानि अस्ति न महोदय?
तत्र केवलम् ओदनमिति न, यत् किमपि सर्वं धान्यं, यत् किमपि जीवन सर्वे जीवाः यत् आहाररूपेण स्वीकुर्वन्ति तत् सर्वम् अन्तर्भूतम् अस्ति.
शाकानि
सर्वं भगिनि अपि केवलं मनुष्यः इति नास्ति खलु, तत्र सर्वे अपि जीवाः इति. अतः तत्र यः कोऽपि ये कोऽपि जीवाः सन्ति ते किं किम् आहाररूपेण स्वीकुर्वन्ति तत्सर्वम् अन्नम् इति पदेन सूचितमस्ति.
जलमपि अन्नम् एव अस्ति वा महोदय अत्र?
समीचीनः प्रश्नः भगिनि. जलमपि तत्र स्वीकर्तुं शक्नुमः खलु? सत्यम्. अतः तत्र पर्ण्यात् अन्नसम्भवः इति, तत्र नद्यां जलमस्ति किन्तु वृष्टिः नास्ति चेत् तत्रापि नद्यामपि जलं न भवति खलु? समीचीनमेव भगिनि, तादृशचिन्तनमपि भवति कर्तुं शक्नुमः. समीचीनमेव भगिनि.
परन्तु भोजनम् इत्युक्ते कुक्ड् फुड् अस्ति न महोदय?
भोजनं तत्र मनुष्यस्य भोजनम् अन्यत् अस्ति. तत्र सर्वे जीवाः इति दत्तमस्ति खलु भगिनि?
न महोदय, प्रश्नः अस्ति अन्नं भोजनं
तत्र
तत्र
कस्य भोजनम् इति तत् अन्यवार्ता अस्ति भगिनि. किन्तु अहम् अवगच्छामि प्रश्नः, किन्तु तत्र किं वक्तुं शक्नुमः? केचन अन्नं खादन्ति, केतन केचन अन्यं खादन्ति, अतः तत्र यत् किमपि भवतु आहाररूपेण तत्र अन्तर्भूतः अस्ति. अस्तु, अग्रिमवाक्ये यज्ञः.
यज्ञः दानं सत्कार्याणि. यज्ञः प्रथमपुरुष एकवचनमस्ति, दानं कर्मपदमस्ति, सत्कार्याणि बहुवचनम् अस्ति, प्रथमपुरुष बहुवचनम् एव अव्ययं. वृष्टेः षष्टिविभक्ति अस्ति.
इदानीं वृष्टेः इति पूर्वं पञ्चमी आसीत् भवत्याः वाक्ये, किन्तु अत्र षष्टि अस्ति. षष्टि अस्ति, समीचीनं भगिनि.
उत्पादने उत्पादने तृतीयविभक्ति अस्ति वा महोदय?
न, सप्तमी.
उत्पादने
कारणानि
उत्पादनम् अस्ति, फलम्.
उत्पादनं समीचीन, सत्यं भगिनि. तत्र अन्यपदमपि अस्ति समानार्थकपदम्, उत्पत्तिः इति. किन्तु उत्पत्तिः स्त्रीलिङ्गपदम् इति मन्ये, मतिशब्दवत् इति मन्ये. अत्र उत्पादनम् अरुणा भगिनी वदतु भगिनि.
महोदय, किमर्थं वृष्टेः षष्टिविभक्ति अत्र?
वृष्टेः उत्पादने वृष्टिः केन कारणेन भवति इति वृष्टिः इति जानाति खलु भगिनि? इदानीं वृष्टिः
पूर्ववाक्ये वृष्टिकारणेन
तत्र वृष्टिः कारणमासीत्, तत्र वृष्टिः कारणमासीत्. अत्र वृष्टेः कारणं किम् इति चर्चा अत्र. यज्ञः दानः दानम् एव सत्कार्यं सत्कार्याणि एव वृष्टेः कारणम् अथवा कारणानि. वृष्टेः कारणानि तत्र उत्पादने त्यक्त्वा अपि वक्तुं शक्नुमः. वृष्टेः कारणानि किं कानि? तत्र यज्ञः दानं सत्कार्याणि इति. किन्तु तत्र वृष्टेः उत्पादने कारणानि केवलं प्रदर्शनार्थं.
कस्य उत्पादनं? वृष्टेः.
वृष्टेः उत्पादने. कस्य उत्पादनम् अथवा कस्याः उत्पादनं? वृष्टेः उत्पादनम्. उत्पादने के कानि कारणानि सन्ति इत्युक्ते, अस्तु, उत्पादने यज्ञः दानः यज्ञः दानं सत्कार्याणि एव कारणानि भवन्ति इति. समीचीनं वा भगिनि?
धन्यवादः.
अत्र उत्पादनस्य इति सम्यक् न वा महोदय?
उत्पादनस्य अपि भवितुम् अर्हति भगिनि. वृष्टेः उत्पादनस्य कारणानि अपि भवति तत्र. किं तत्र वृष्टिः अपि वृष्टेः उत्पादनं भिन्नम् इति स्वीकृतमस्ति तत्र. तादृशं कुर्मः चेत् वृष्टेः उत्पादनस्य कारणानि इति वक्तुं शक्नुमः. अथवा वयं वृष्टिः अपि वृष्टेः उत्पादनं समानम् इति चिन्तयामश्चेत् एतादृशं भवति, वृष्टेः उत्पादने इत्युक्ते वृष्टेः इति. तत्र सामान्यचिन्तनं किम् अस्ति? वृष्टिः अपि तस्य उत्पादनं समानमेव खलु? किन्तु अत्र प्रदर्शनार्थम् उत्पादने इति. कस्य कारणम् इति तादृशप्रयोगः वयं जानीमः. तत्र तस्मिन् कारणं किम् इति तादृश अपि भवति इति मन्ये अत्र. तादृशरूपम् अत्र दत्तम् अस्ति इति मन्ये. अस्तु, अग्रे श्रीप्रिया भगिनी, नमस्कारः.
नमस्कारः महोदय.
पेज् 125 मध्ये स्मः.
अस्मि महोदय.
अस्तु अस्तु अस्तु, समीचीनम्. अस्तु, इदानीं वदतु भगिनि.
अत्र अन्नं भोजनं तयोः मध्ये भेदः, अन्नं खादामि भोजनं करोमि तादृशं भवति वा?
तत्र अन्नम् इत्युक्ते आहारम् इति चिन्तयामि भगिनी अत्र
अन्नं स्वीकरोमि अथवा अन्नं खादामि इति भवति किन्तु भोजनं तत्र भोजनक्रिया भवति खलु तद्विषये भोजनं करोमि इति सम्यक् इति अहं चिन्तयामि
हा किन्तु तत्र भोजनस्य कारणं भिन्नमस्ति आहारस्य कारणं भिन्नमस्ति खलु बुभुक्षा भोजनस्य कारणं भवति किन्तु आहारस्य कारणं भिन्नं खलु अत्र आहारम् इति विषयः इति मन्ये अस्तु अस्तु तर्हि अत्र उमामीनक्षी भगिनी तत्र अधोभागे आदिशङ्कराचार्यस्य श्लोकः अस्ति तत् पठति वा
ओके पठामि भगवद्गीता किञ्चित् गीता गङ्गाजललवणकणिका पीता गङ्गाजललवकणिका पीता सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा शङ्कराचार्य यदा भगवद्गीता वयं किञ्चित् अपि पठामः गङ्गाजलस्य किं ड्रप्स् पीतमिति
पिबामः
तदनन्तरं किं सकृदपि येन मुरारिसमर्चा एकवारमपि अहं चिन्तितवती किञ्चित् अपि ओके येन मुरारि इत्युक्ते विष्णु अथवा कृष्ण
तस्य अर्चनं कृत्वा तस्य नमस्कारं इति मन्ये
समानं ओके यदा एतद् वयं कुर्मः तत्र तु यमेन
सह यः यः भगवद्गीता किञ्चित् अधीता अथवा गङ्गाजल लव कणिका पीता सकृदपि येन तत्र यः इति नास्ति क्षम्यतां येन एव अस्ति येन भगवद्गीता किञ्चित् अधीता गङ्गाजल लव कणिका पीता सकृदपि मुरारिसमर्चा येन क्रियते तस्य यमेन न चर्चा
इत्युक्ते तस्य मरणं नास्ति
तस्य तादृश अर्थः अस्ति अत्र तत्र किम् अस्ति भगवद्गीता किञ्चित् अधीता पठिता इति अपि कणिका लव इति पीस् कणिका अपि ड्राप् इति मन्ये गङ्गाजलम् अपि मुरारिसमर्चा सकृदपि इत्युक्ते वन्स् इति मन्ये क्रियते तस्य यमेन न चर्चा तत्र
मरणं नास्ति एवं न कदाचित् मरणस्य भयं नास्ति
समीचीनं प्रायश तत् समीचीनमस्ति भगिनि
मोक्षं न प्राप्नोति मोक्षप्राप्नोति चेत् मरणं न भवति अतः पुनरपि जननं न भवति
पुनरपि जननं अस्तु महोदय अस्तु
अतः मरणं न भवति तादृश
अत्र अन्यत् किमपि वक्तव्यमस्ति वा महोदय
गङ्गाजललवकणिका किमर्थं लव इति
लव इत्युक्ते पीस् कणिका इत्युक्ते ड्राप् तत्र केवलं तत्र किं
स्माल् ड्राप्
इति किञ्चित् लघु लघु अंशः गङ्गाजलस्य तद्
पातक ड्राप्
तद् पीता अपि चेत् तत्र यमेन न चर्चा इति केवलं कणिका इति कणिकायाः लघु लघु भागम् अपि पीता चेत् इति
तत्र सकृत् अस्ति महोदय, तत्र वन् एकः अर्थः अस्ति एकवारम् अपि, अपि च द्वितीयमर्थमस्ति इमिडियट् इति महोदय.
सत्यं सत्यं सत्यं, हा समीचीनं. किन्तु अत्र वन्स् इति अत्र वन्स्, किन्तु समीचीनं महोदय, तत्र सकृद् अपि इति इमिडियट्लि. धन्यवादः महोदय. अन्य प्रश्न अस्मिन् अस्य श्लोकस्य विषये? अस्तु, किं भजगोविन्दम् अथवा मोहमुद्गरः इति नाम अस्ति खलु, तस्मात् एव अस्ति. अस्तु समीचीनम्. अस्तु अग्रे गच्छामः तर्हि.
इति पदं कथं संस्कृते वदामि महोदय?
रैमिङ्ग् वर्ड्स्
सदृशानि पदानि वा
पर्यायपदानि?
न न, पर्याय इत्युक्ते समानार्थकं, समानार्थकम् समान अन्तपदम् इति वा? ओ द्रष्टव्यं, समीचीनं प्रश्नः भगिनि, न जानामि. हा कोऽपि दृष्ट्वा वदतु, अहमपि
अन्तिमभागः
समानः अस्ति चेत् तत्र कीदृश अलङ्कारः, तस्य नाम अस्ति वा? केवलं शब्दालङ्कारः इत्युक्ते अन्तिमभागः, अन्तिमवर्णः अथवा अन्तिमवर्णद्वयं किमपि तत् समानः इति वा?
अत्र किञ्चित् अधीता पीता
कोऽपि दृष्ट्वा वदतु, अहं न जानामि, किन्तु समीचीनः प्रश्नः एव. अस्तु तर्हि अग्रे गच्छामः तत्रतः पर्यन्तं. तत्र गीताञ्जलि भगिनी नमस्कारः, श्रीप्रिया भगिनी इदानीं तत्र पठितुम् इच्छति वा, तत्र पेज् 126 मध्ये? चिन्ता मास्तु भगिनि, नमस्कारः. अन्य कोऽपि अस्ति? मधुसूदन महोदय नमस्कारः. नमस्कारः महोदय, पेज् 126 मध्ये स्मः महोदय. अस्तु श्रीप्रिया भगिनि पठति वा.
नगरदर्शनं कदा तः पर्यन्तम् एतां विनोदकणिकां पठत.
कणिका, कणिका इदानीं दृष्टवन्तः खलु, कणिका.
कश्चन ग्रामीणः नगरदर्शनार्थं महानगरं गतवान्. यदा बुभुक्षा जाता तदा सः एकं भोजनालयं गत्वा पृष्टवान्, अत्र भोजनस्य अल्पाहारस्य च समयः कः इति. तदा भोजनालयस्वामी उक्तवान्, प्रातः सप्तवादनतः एकादशवादनपर्यन्तम् अल्पाहारः, मध्याह्ने द्वादशवादनतः त्रिवादनपर्यन्तं भोजनं, सायं पञ्चवादनतः रात्रौ दशवादनपर्यन्तं रात्रिभोजनम् इति. एतस्य श्रवणानन्तरं सः ग्रामीणः पृष्टवान्, महाशय, यदि एतावान् कालः अल्पाहारार्थं मध्याह्ने भोजनार्थं रात्रिभोजनार्थं च भवति तर्हि मम नगरदर्शनं कदा भविष्यति?
सर्वे अवगच्छन्ति वा? अस्तु तर्हि
पूर्णं दिनं पेट् पूजा.
समीचीनं, सत्यं भगिनि. अस्तु तत्र गीताञ्जलि भगिनी किञ्चित् एकम् वाक्यं दृष्ट्वा किञ्चित् वदति वा?
आं महोदय, प्रयत्न करोमि. एतां विनोदकणिकां पठत, अत्र विनोदकणिकाम् इति कर्मपदं, पठत इति लोट् मध्यमपुरुष बहुवचन, एताम् अपि च विनोदकणिका इति विशेषणविशेष्यभाव.
समीचीनं भगिनि. अपि कणिका इत्युक्ते ड्राप् इति पूर्वं दृष्टवन्तः. अत्र विनोदकणिका, ड्राप् आफ् ह्यूमर्
इत्युक्ते
हास्य.
कश्चन ग्रामीणः नगरदर्शनार्थं महानगरं गतवान्. कः गतवान्? कश्चन ग्रामीणः गतवान् इत्युक्ते
ग्रामे वसति सः.
ग्रामे वसति सः, किन्तु अत्र महानगरं गतवान्. किमर्थं गतवान्? नगरदर्शनार्थं गतवान्. तदनन्तरं यदा बुभुक्षा जाता तदा सः एकं भोजनालयं गत्वा पृष्टवान्, अत्र भोजनस्य अल्पाहारस्य च समयः कः इति. यदा यदा तदा इति वयं पठामः. यदा बुभुक्षा जाता, बुभुक्षा इत्युक्ते सन् प्रत्यान्त महोदय, बुभुक्षा
त्रीलिङ्ग,
स्त्रीलिङ्ग, किन्तु प्रत्यय अहं न जानामि महोदय. बुभुक्षा जाता इत्युक्ते सः ग्रामीणः किञ्चित् भोजन इच्छति,
भोजनम् इच्छति.
तदा सः एकं भोजनालयं गत्वा, गत्वा इत्युक्ते तत्त्वान्त भोजनालयं गत्वा पृष्टवान्. अत्र भोजनस्य अल्पाहारस्य द्वयोः मध्ये विशेषणविशेष्यभाव, भोजनस्य अल्पाहारस्य च. षष्टि एव, भोजनस्य वा अल्पाहारस्य वा इति. समयः कः?
तत्र समयः इति विषयः, भोजनस्य समयः, अल्पाहारस्य समयः.
आम् महोदय, अल्पाहारस्य समयः अपि च भोजनस्य समयः, अत्र कः
कः
इति प्रश्न ग्रामीणः पृच्छति. तदा भोजनालयस्वामी इत्युक्ते भोजनालयस्य कार्यकर्ता अपि च मालिक,
यस्य भोजनालयम् भोजनालयं यस्य अस्ति सः.
यः भोजनालयं चालयति सः
तदपि तदपि
भोजनालय
स्वामी तदपि भवितुम् अर्हति. समीचीनम्, अस्तु.
उक्तवान् प्रातः सप्तवादनतः एकादशवादनतः पर्यन्तम्
एकादशवादनपर्यन्तम्
अल्पाहारः इत्युक्ते सप्त इत्युक्ते अष्ट नव दश एकादश चत्वारि घण्टानि चतुरः घण्टा कथं
चतुस्रः घण्टाः
चतुस्रः घण्टाः
किमर्थं घण्टाः इति लिङ्गं किं
न जानामि महोदय, स्त्रीलिङ्ग् अस्ति चेत् घण्टा चतुस्र घण्टाः
घण्टा इति पदं वा घण्टाः कः उक्तवती
न घण्टा इत्युक्ते
चतुस्रः घण्टाः इति अस्तु तत्र पदं किं स्त्रीलिङ्गपदं वा
हिन्दी भाषायां
संस्कृते किम् अस्ति
न जानामि महोदय. घण्टा आवर् रघुपति आचार्य किञ्चित् सायं महोदय घण्टा
घण्टा महोदय
स्त्रीलिङ्ग् अस्ति वा इदानीम् रघुपति महोदयस्य साहाय्यं न आवश्यकं वा
न महोदय घण्टाक्रीडितुम् अस्ति.
अस्तु अस्तु, भविष्यति सुधा भगिनी सहायं करोति. अस्तु अस्तु अस्तु.
चतुस्रः
घण्टाः,
चतुस्रः घण्टाः
यावत् यावत् अल्पाहारम्
अल्पाहारं भवति भवति. तदनन्तरं मध्याह्ने दश द्वादशवादनतः त्रिवादनपर्यन्तं भोजनम्. अपि च सः अत्र द्वादशवादनतः इति पञ्चम विभक्ति पञ्चमविभक्ति इति न, किन्तु
अस्तु न तत्र द्वादशवादनतः इति स्थाने तस्य अन्यत् रूपं किमस्ति?
द्वादशवादनात्
इति तत्र पञ्चमविभक्ति.
अत्र अत्र प्रत्यय प्रत्ययरूपं तः अहं न जानामि प्रत्ययः सः
प्रत्ययः तः इति प्रत्ययः
अस्तु प्रत्यय
तसिल् प्रत्यय अस्ति
तत्तः
तसिल् न न
अस्तु. साय पञ्चवादनतः सायं क्षम्यतां महोदय सायं पञ्चवादनतः रात्रौ दशवादनपर्यन्तं रात्रिभोजनम् इति इत्युक्ते पञ्चघण्टाः समीचीनं महोदय पञ्चघण्टाः अपि च पञ्चघण्टा न जानामि पञ्चघण्टाः रात्रिभोजनम् इति भोजनालयस्य स्वामी इति उक्तवान्. तदनन्तरं ग्रामीणः इति एतस्य श्रवणानन्तरं सः ग्रामीणः पृष्टवान् महाशय इति असम्बोधन यदि एतावान् कालः अल्पाहारार्थं मध्याह्ने भोजनार्थं रात्रिभोजनार्थं च भवति तर्हि मम नगरदर्शनं कदा भविष्यति इति.
अत्र कः तत्र द्वयोः तत्र भोजनालयस्वामी तस्य किमपि उक्तवान् किन्तु तस्य आशयः कः अस्ति तत्र सप्तवादनात् एकादशवादनपर्यन्तम् अल्पाहारः इति वाक्यमस्ति खलु तेन उक्तं वाक्यं तत्र वाक्यस्य अर्थः कः तस्य आशयः कः
आशय इति भवान् किं विवक्षानुसारम् आगच्छतु अपि च
तत्र किं तस्य आशयः अस्ति अल्पाहारः लभ्यते इति खलु
लभ्यते अस्तु अस्तु महोदय लभ्यते
अथवा भवति अत्र अल्पाहारः कर्तुं शक्यते इति तस्य आशयः
अस्तु
किन्तु ग्रामीणः अस्ति सः किं चिन्तितवान्
सः इति चिन्तितवान्
सप्तवादनतः एकादशवादनपर्यन्तम्
अहं भोजनम् एव करोमि
अल्पाहारस्य
तदनन्तरं
तादृशसमयः अपेक्षितः इति सः चिन्तयति अल्पाहाराय अल्पाहारं कर्तुं सप्तवादनतः एकादशवादनपर्यन्तं समयः अपेक्षितम् इति सः चिन्तयति अतः सः चिन्तयति अस्तु एतादृश भवति चेत् तत्र समयः एव नास्ति खलु नगरदर्शनं कर्तुम् इति
एतावत् प्रश्नं कदा उक्तवान्
किं भगिनि
एतावत् प्रश्नः अस्ति वा महोदय
प्रश्नः
कदा उक्तवान् मध्याह्ने आर् प्रातःकाले आर्
न जानामि किन्तु वयं न जानीमः खलु, किन्तु सः तस्य उत्तरमस्ति अस्तु, सः यदि यदि सः नगरदर्शनं कृतवान् यत् दर्शनं अभवत् तदेव पर्याप्तं, तदनन्तरं सः किमपि न द्रष्टुं शक्नोति इति इदानीं तस्य अस्मिन् भोजनालये एव सः तिष्ठति इति सः तस्य चिन्तनमस्ति अग्रे. अस्तु, तत्र किमस्ति तः पर्यन्तम् इति. अस्तु, तत्र अभ्यासः कुर्मः, किन्तु तः इति पञ्चमीभक्तिरूपम् अस्ति, तत्र सप्तवादनतः इति स्थाने सप्तवादनात् इति कर्तुं शक्नुमः. तत्र समयस्य विषयः सप्तवादनात् अपि पर्यन्तम् आरम्भः
महोदय, पर्यन्तम् इति शब्दस्य किमपि पर्यायवाचि अस्ति महोदय?
पर्यन्तम् इति द्रष्टव्यमस्ति भगिनि, द्रष्टव्यमस्ति.
यदि वयं सप्तवादनात् इति पर्यन्त इति वदामः तदनन्तरं
तत्र विभक्ति तत्र पञ्चमीभक्ति इति तत्र आरम्भं,
किन्तु अन्ते विभक्ति नास्ति,
तादृशविभक्ति नास्ति भगिनि. अतः
तत्र वियोगविभक्ति अस्ति, किन्तु योगविभक्ति नास्ति.
हा सत्यं सत्यं, हा सत्यं सत्यं, हा सत्यं सत्यं सत्यं, हा वियोगः अस्ति, संयोगस्य विभक्ति नास्ति. हा सत्यं भगिनि, हा अस्तु. अतः तः इति तात् इति अपि तत्र पञ्चविभक्ति स्थापितुं शक्नुमः. अस्तु, तर्हि तत्र प्रथम अभ्यासः यत् अस्ति, यः अस्ति, तम् अभ्यासं कुर्मः. तत्र हा वंशीसुधा भगिनी अग्रे अभ्यासं पठितुम् इच्छति वा?
महोदय, भवती उक्तवती वियोग विभक्ति संयोग विभक्ति किम् अस्ति महोदय?
संयोग विभक्ति नास्ति, अतः तस्य चिन्तनं मास्तु. वियोग वियोग इत्युक्ते तत्र फलं फलं वृक्षे अस्ति, वृक्षः फलम् अस्ति, वृक्षात् पतति, तद् वृक्षात् तत् अपगच्छति खलु, तत् वियोगः इति तावदेव, तावदेव. पञ्चविभक्ति वियोगं सूचयति, वियोगं सूचितं भवति.
परन्तु संयोगविभक्ति कुत्र अस्ति?
किमपि नास्ति,
किमपि नास्ति,
तादृशविभक्ति नास्ति एव. अतः केवलम् अतः पर्यन्तम् इति स्थाने कापि विभक्ति तत्र स्थापितुम् एषा विभक्ति एव सम्यक् इति किमपि चिन्तनं न भवति.
संयोग सप्तमी विभक्ति भवितुम् अर्हति रामे अधिकरणम् इति संयोग अधिकरणं,
किन्तु
पर्यन्तमर्थे न भवति, परन्तु अधिकरणरूपे भवति.
किन्तु संयोगः
उत्पेटिकायां उत्पेटिकायां पुस्तकम्,
किन्तु योगः इति सर्वदा अधिकरणं नास्ति महोदय, खलु? हस्तद्वयस्य योगः अस्ति, किन्तु एकः हस्तः अन्यस्य अधिकरणम् इति किमपि न भवति. अतः
पर्यन्तं विभक्ति नास्ति महोदय,
विभक्ति नास्ति, अतः विभक्ति नास्ति इति विभक्ति अस्ति. अस्तु वंशीश्वरभगिनी अभ्यासः.
अभ्यासः किञ्चन गीताशिबिरं प्रवर्तते, तस्य समयसारणी अत्र अस्ति, तद् दृष्ट्वा कदा किं प्रवर्तते इति लिखत. उदाहरणं, वर्गे षड्वादनतः सप्तवादनपर्यन्तं योगासनं प्रचलति. अनन्तरं वदामि वा महोदय? वर्गे नववादनतः दशवादनपर्यन्तं गीतापारायणं प्रचलति. अन्यथा अन्यः वाक्यमस्ति, वर्गे नववादनात् दशवादनपर्यन्तं गीतापारायणं प्रचलति.
समीचीनं भगिनि, हा समीचीनम् अस्तु. मधुसूदन महोदय अग्रे वदति वा?
श्रूयते. सम्भाषणवर्गः चलति. वर्गे वर्गे त्रिवादनतः
न महोदय, एकादशवादन एकादशवादन अपि अस्ति.
ओ एकादश एकादश
गीताप्रवचनम् इति अस्ति खलु.
ओ गीताप्रवचनं, क्षमतां. वर्गे एकादशतः एकादशवादनतः द्वादशवादनपर्यन्तं गीताप्रवचनं प्रचलति.
हा समीचीनं महोदय, समीचीनम्. अस्तु अग्रे शुभा भगिनि.
त्रिवादनतः चतुर्वादनपर्यन्तं सम्भाषणवर्गः प्रचलति.
हा समीचीनं भगिनि. हा नरेश महोदय.
वर्गे पञ्चवादनतः षड्वादनं पर्यन्तं गीताध्ययनं प्रचलति.
हा समीचीनम् अस्तु. रघुपतिमहोदय अन्तिमम्.
सप्तवादनतः अष्टवादनपर्यन्तं गीतोपन्यासः प्रचलति.
प्रचलति इति समीचीनम् अस्तु. हा इदानीं तत्र यद्यत् दत्तमस्ति एतादृशवाक्यानि स्ववाक्यानि इदानीं वदन्तु. तत्र
एकः प्रश्नः महोदय.
हा
अत्र षड्वादनतः सप्तवादनं पर्यन्तं षड्तः सप्तवादनतः सप्तवादनपर्यन्तम् इति समीचीनं नास्ति महोदय.
षट्तः इति तत्र षट् इति तत्र पदं किञ्चित् भिन्नम् अस्ति खलु भगिनि. षट् इति पदं तस्य विभक्ति अपि अस्ति, तत् संख्यायाः विभक्ति अस्ति खलु.
अस्तु अस्तु महोदय.
अत्र प्रायशः षट्तः इति
वा एकादशतः द्वादशवादन
अस्तु तत्र. अस्तु भगिनि एकनिमिष, षड्तः इति वक्तुं
षड्तः
षड्वादनतः इति किन्तु
अर्थः भिन्नः भवति. षड्तः इति
एकादशतः
तत्र वादन इति
आवश्यकम् इति मम प्रश्नः.
आवश्यकम् इति मन्ये भगिनि, किन्तु भवत्याः प्रश्नः अपि अवगच्छामि. अत्र यत् वाक्यं दत्तमस्ति तत्र पुस्तके, तत्र वादनः वादनतः इति न दत्तमस्ति इति भवत्याः चिन्तनं वा?
आम् महोदय, इति प्रायः समीचीनं नास्ति महोदय.
हा किन्तु तत्र वाक्यवर्गे षड् इति षड् इति एव दत्तमस्ति, किन्तु 6.00 इति दत्तमस्ति खलु. केवलं
किन्तु 7.00 न दत्तम्.
अस्तु अस्तु अस्तु, अहम् अवगच्छामि. किन्तु किन्तु भगिनि तत्र अस्माकं वर्गे वयं किं कुर्मः, उदाहरणानि दृष्ट्वा किं कर्तुं शक्नुमः इति तद् भवति. तत्र विनोदकणिकायां किं दत्तमस्ति, सप्तवादनतः एव दत्तमस्ति खलु. हा अतः वादन इति आवश्यकम् इति मन्ये.
मुद्रणदोषः महोदय, तत्र सर्वत्र 00 अस्ति उपरि.
अतः वादनं, किन्तु समीचीनः प्रश्नः भगिनि, किन्तु वादनम् आवश्यकम् इति चिन्ता. अस्तु तत्र
एकः प्रश्नः, समयसारिणी अस्ति वा समयसारणी अस्ति वा महोदय? तत्र
सारिणी इति दत्तमस्ति.
सारिणी अस्ति वा सारणी इति अहं चिन्तयामि कोऽपि वदति वा सारणी सारिणी
अथवा द्वयमपि साधु एव प्रायशः
सारिणी अस्ति
सारिणी इति मन्ये भगिनि हा सारिणी प्रायश तदपि रूपं भवेत् न जानामि भगिनि तत्र समयः कथं सरति इति तत् सूचयति समयसारिणी
धातु प्रत्यय अस्ति सारिणी इति वाचस्पत्यम् अस्ति तत्र
ओ अस्तु महोदय धन्यवादः अस्तु इदानीम् एतादृशवाक्यानि भवन्तः अपि वदन्तु तत्र वादनतः अन्यवादनपर्यन्तं किमपि प्रचलति किमपि करोति किमपि भवति किमपि प्रवर्तते एतत् करोमि अत्र इति तादृशवाक्यानि अस्तु तत्र उषा भगिनी वदति वा
आं महोदय अहं टुडे अद्य न सर्वदा अथवा
प्रतिदिनं प्रतिदिनं
प्रतिदिनम् अहं प्रतिदिनं दशवादनतः द्वादशवादनपर्यन्तं संस्कृतं गृहपाठं करोमि
संस्कृतगृहपाठं करोमि समीचीनं भगिनि समीचीनं भगिनि हा अस्तु उमा मीनाक्षी भगिनि
अहं प्रति टुडेस् और् बुधवासर न
मङ्गलवासर
प्रति अद्य बुधवासर वा मङ्गलवासर बुधवासरः प्रति बुधवासरे षट्वादनतः सार्धसप्तवादनपर्यन्तं निरञ्जन महोदयस्य वर्गं वाट् इस् इट् अटेण्ड् करोमि
वर्गे वर्गम् आगच्छामि
वर्गम् आगच्छामि
अथवा वर्गे
भागं
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 स्वीकरोमि स्वीकरोमि अस्तु रघुपति महोदय
अहं प्रातः अष्टवादनतः नववादनपर्यन्तं द्विचक्रिकायां भ्रमणं करोमि
समीचीनं महोदय अस्तु
शुभ सारणी अपि अस्ति
सारणी अपि अस्ति वा महोदय
आं महोदय सारणी अस्ति
अर्थभेदमस्ति वा
न नास्ति प्रसारणी इति दत्तमस्ति कल्पद्रुमे अस्ति तत्र
किन्तु
स्ट्रीमिति अस्ति स्ट्रीम्
अस्तु अतः पदद्वयमस्ति किन्तु तत्र सारिणी इत्युक्ते टैम् टेबल् किन्तु तत्र अस्तु
सारिणी महोदय रघुपतिमहोदय ह्रस्व इकार अन्ते
सारिणी इति अस्ति समस्या सारिणी इति अस्ति समयसारिणी
अस्तु 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 हा तत्र दृष्ट्वा सारिणी सारणी इति वंशीसुत भगिनी सारणी इति टेबल् इति भवति तत् शोधनसारणी इति करेक्षन् टेबल् इति अस्ति तत्र पुस्तके मुद्रणं प्रथममुद्रणं भवति तदनन्तरं दोषाः भवन्ति खलु मुद्रणे
मुद्रणदोषः
अस्तु रघुपति महोदय वाक्यं ओ भवान् उक्तवान् अस्तु द्विचक्रिका अस्तु
शुभ भगिनि एकः प्रश्नः अस्ति महोदय रघुपतिमहोदय उक्तवान् अहं द्विचक्रिकया भ्रमणं करोमि परन्तु वेन् वि से इन् इङ्ग्लिश् ऐ डु बैकिङ्ग्
तादृश तादृशमपि सः वक्तुं शक्नोति, वदति वा महोदय?
न जानामि महोदय,
अहं द्विचक्रिका भ्रमणं करोमि. द्विचक्रिका भ्रमणं तत्र
द्विचक्रिका भ्रमणम् अस्ति
इति संयुक्तपदं स्वीकुरु.
षष्टी आगच्छति किल महोदय?
सत्यं, द्विचक्रिकायाः तदपि अस्तु, अथवा न षष्टी अथवा द्वि, तत्र कीदृश
द्विचक्रिकायाम् इति भवति वा महोदय? द्विचक्रिकायां
अस्तु 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 अस्तु, किन्तु सर्वे अवगच्छामः. अस्तु, इदानीं विषयान्तरं मास्तु, पञ्चमविभक्ति इति कुर्मः. अस्तु, शुभा भगिनी अग्रे.
अग्रिमसप्ताहे मङ्गलवासरे पादोनसप्तवादनतः सपाद नववादनपर्यन्तं पूजा भविष्यति मन्दिरे.
मन्दिरे, समीचीनं भगिनी. अस्तु, श्रीप्रिया भगिनी.
प्रतिदिनं सार्धचतुर्वादनतः अष्टवादनपर्यन्तं मम विशेषकक्षा प्रचलति.
समीचीनं भगिनि. अस्तु, वंशीसुधा भगिनि.
आं महोदय, प्रतिदिनम् अहं नववादनतः दशवादनपर्यन्तं पूजा करोमि.
पूजां करोमि.
आं महोदय,
कर्मपदं. अस्तु, गीतञ्जलि भगिनि. गीतञ्जलि भगिनि न श्रूयते,
क्षम्यतां महोदय. प्रतिदिनम् एकवादनतः त्रिवादनपर्यन्तम् अहं प्रकृत्यां भ्रमणं करोमि.
प्रकृत्यां भ्रमणं करोमि. अस्तु भगिनि, प्रकृत्यां भ्रमणं करोमि. अस्तु भगिनि, समीचीनं. अस्तु, अग्रे मधुसूदन महोदय.
अहं प्रति भानुवासरे नववादनतः एकादशपर्यन्तं मन्दिरं गच्छामि.
समीचीनं महोदय. अरुणा भगिनी, तत्र महोदय एकनिमिषः, तत्र मन्दिरं गच्छामि न, प्रायशः मन्दिरे तिष्ठामि इति, मन्दिरे अस्मि इति. तत्र नो चेत् किं भवति, तावत् समयः केवलं गच्छामि इति भवति. अतः तावत् समयः मन्दिरे अस्मि,
गच्छन्
अस्मि. तत्र अर्थभेदः भवति. अस्तु, अस्तु, अरुणा भगिनी.
अहं प्रतिदिनं रात्रि नववादनतः दिन पञ्चवादनपर्यन्तं निद्रां करोमि.
पञ्चवादनपर्यन्तं निद्रां करोमि. समीचीनं भगिनि.
रात्र्यां भवति वा?
समीचीनं, समीचीनं. अस्तु, नरेश महोदय.
अहं प्रतिदिनं सायंकाले षड्वादनतः सप्तवादनपर्यन्तं भोजनं करोमि.
अस्तु महोदय, अस्तु. अस्तु, तर्हि तत्र तः पर्यन्तम् इति तस्य प्रयोगः कीदृशः इति अस्माभिः ज्ञातः. अस्तु, इदानीम् अग्रे
गच्छामि. एकं प्रश्नमस्ति, अस्तु महोदय. सः पर्यन्तं परं का विभक्ति, का विभक्तिः भवति महोदय? अत्र द्वादशवादनं सः द्विवादनपर्यन्तं भोजनं अत्र अस्ति. विभक्ति अत्र भोजनं,
विभक्तिविषयः एव नास्ति महोदय. तत्र भोजनं तत्र अस्तु, तत्र प्रथमवाक्यं स्वीकुर्मः. तत्र तत्र अल्पाहारः इति अस्ति खलु महोदय? प्रातः सप्तवादनतः एकादशवादनपर्यन्तम् अल्पाहारः इति वाक्यमस्ति खलु. तत्र अल्पाहारः भवति अथवा लभ्यते इति किमपि क्रियापदम् अस्ति. तत्र अल्पाहारः इति कर्तृपदम्. अल्पाहारः लभ्यते अथवा भवति इति किमपि. किन्तु तस्य पूर्वं तत्र प्रातः समयसूचकः सप्तवादनतः अपि एकादशवादनपर्यन्तम् इति तदपि समयसूचकः. तत्र विभक्ति किमपि नास्ति तत्र.
अस्तु महोदय.
हा, केवलं तत्र सप्तवादनात् इति रूपं पञ्चमीविभक्तिरूपं स्थापितुं शक्नुमः. किन्तु तत्र पर्यन्तम् इति पदस्य विभक्ति का इति तत्र तादृशचिन्तनम् अत्र नास्ति इदानीं. तत्र पर्यन्तम् इति प्रत्ययस्य तस्य प्रयोगः तत् उपयुज्य तद् उपयुज्य कीदृशवाक्यं रचितुं शक्नुमः इति विषयः अत्र.
यदा समयं वदामः तदा सप्तमीविभक्ति मध्याह्ने प्रभाते इति वक्तव्यं खलु. अत्र प्रातः सायम् इति दत्तमस्ति. तस्य कीदृश
हा तत्र मध्याह्ने इति अस्ति. हा, मध्याह्ने रात्रौ अपि अस्ति. तत्र सायं प्रातःकाले इति भवति. प्रातः काले इति वयं सर्वदा वदामः खलु, प्रातः काले इति. तत्र तु सत्यं सत्यं. हा, सायङ्काले इति भवति. प्रातः इति कीदृशप्रदम् इति द्रष्टव्यमस्ति भगिनि. तत्र प्रातः इति हा तत्र प्रातः प्रातः इति तत्तु हा प्राते इति भवति वा. हा, समीचीनप्रश्नः एव भगिनि. हा, प्रातः हा किमर्थं प्रातः इति एव दत्तमस्ति. किमर्थं तत्र सप्तमी नास्ति. अस्तु. अस्तु अस्तु.
महोदय प्रश्नः कः,
ते पदे अव्ययानि वा?
न न, प्रातः इति न. प्रातः अव्ययं नास्ति. प्रातः पुल्लिङ्गपदमेव अस्ति.
क्षम्यतां महोदय, भवत्याः प्रश्नः
कः? मम प्रश्नः अस्ति, मध्याह्नसमये चेत् मध्याह्ने रात्रौ प्रभाते इति वदामः खलु. अत्र प्रातः सप्तमीविभक्तिरूपं, किन्तु अत्र प्रातः सायम् इति दत्तमस्ति. किमर्थम् इति मम प्रश्नः.
हा, समीचीनप्रश्नः अस्ति भगिनि. उत्तरं न जानामि, द्रष्टव्यमस्ति. तत् किन्तु हा प्रातःकाले इति रूपं जानामि. किन्तु अत्र अत्र प्रातः एव दत्तमस्ति. हा
महोदय, 372 मध्ये वयं पठितवन्तः सूर्यः कदा उदेति, सूर्यः प्रातः उदेति. सूर्यः कदा अस्तम् एति, सूर्यः सायम् अस्तम् एति.
हा, अस्तु 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 अस्तु. हा, तत्र सायम् अपि तत्रापि सायम् इति एव अस्ति. सूर्यः प्रातः. अतः एतादृशप्रयोगः अपि साधु इति मन्ये खलु.
प्रातः 72
मध्ये
द्विसप्ततिः. तदनन्तरम् अहं जायिन् कृतवती अत्र.
किन्तु एतदेव रूपम् अत्रापि अस्ति इति वार्ता भगिनि. तावदेव.
तत्र संस्कृत प्रातः अस्तमस्ति. एड्वर्ब्, एड्वर्ब् इन् द मार्निङ्ग् विशेषः.
अस्तु 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 अस्तु. अतः हा अस्तु. वदतु महोदय, वदतु वदतु महोदय.
बिकास् एड्वर्ब् अस्ति चेत्
तस्य विभक्ति न भवति. प्रायशः एषः एव एतदेव उत्तरमस्ति. धन्यवादः महोदय, सुधन् महोदय. भगिनि तत्र क्रियापदं क्रियापदस्य परिवर्तनं करोति इति अथवा तत्र विशेषणं क्रियापदविशेषणम् इति प्रातः प्रातः इति भवति इति प्रातः अहं चिन्तितवान् प्रातः इति तत्र पुल्लिङ्गपदमपि अस्ति इति किन्तु यत् मधुसूदन महोदय वदति तदपि तदेव सम्यक् अस्ति तत्र प्रातः इति क्रियापदविशेषणम् अस्ति तत्र अल्पाहारः लभ्यते कदा लभ्यते इति तत्र लभ्यते इति पदस्य किमपि विशेषणं तत्र प्रातः लभ्यते अतः तत्र प्रातः इति तत् किञ्चित् भिन्नमस्ति पुल्लिङ्गपदम् इति तादृश अर्थः नास्ति तत्र क्रियापदविशेषणम् इति
प्रातः इति यदि विशेषणं चेत्
विशेषणं विशेषणं तत्र नामपदस्य विशेषणं न
विशेषणं चेत् तस्य परिवर्तनं भवति लिङ्ग लिङ्गानुसारे परिवर्तनं भवति
सत्यं 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 सत्यं
क्रियाविशेषण विशेषण
एतत् क्रियापदविशेषणम् अस्ति
अत्र प्रातः प्रातः एव
हा प्रातः प्रातः एव तस्य प्राते इति नास्ति अपि हा समीचीनं धन्यवादः महोदय मधुसूदन महोदय हा तत्र अड्वर्ब् इति तदेव समीचीनं हा
महोदय सर्वाणि क्रिया विशेषण विशेषणानि अव्ययानि
न न न अव्ययानि इति न किन्तु तत्र तस्य प्रयोगः अपि किञ्चित् भिन्नम् अस्ति इदानीं वयं न कृतवन्तः खलु तत्र केचन विशेषणं क्रियापदविशेषणं द्वितीयविभक्तो भवति इति नियमः अस्ति तत्र किन्तु अत्र प्रायशः प्रातः इति तत्र तस्य नियमः कः इति न जानामि किन्तु तत् क्रियाविशेषणम् इति तत्तु समीचीनम् इति मन्ये
महोदय
किन्तु किन्तु कश्चन क्रिया पदानि विप्तिस्तु न किन्तु अन्यरूपाणि
भवत्याः प्रश्नः मया न अवगन्तम् अवगन्त्य अवगन् अहं न अवगतवान्
यदि सर्वाणि
सर्वाणि तदनन्तरं किम् उक्तवती भगिनि सर्वाणि न श्रूयते भगिनि
न जातम्
न श्रूयते गीताञ्जलि भगिनि
भगिनी न सम्यक्तया न श्रूयते
महोदय
प्रातर् प्रातः इति प्रातर् इति अस्ति प्रभाते अव्ययमस्ति प्रातर् इति
अव्ययमस्ति
प्रातर् इति पदमस्ति प्रातः इति भवति अव्ययमस्ति इति शब्दकल्पद्रुमे अपि अस्ति वाचस्पत्यमपि अस्ति
अस्तु महोदय प्रातर् इति
प्रातर् इति प्रातः प्रातर् इति प्रातति इति प्र अत् प्रातते रन् इति उणादि प्रभातं तात्पर्यम् इति अव्ययं दत्तमस्ति अव्ययमस्ति अतः
अर्थः कः प्रातर् इति
प्रभाते प्रभातं
सप्तविभक्तिरूपमेव तत्र सूचितमस्ति वा
प्रभाते अमरः प्रातःकालो मुहूर्तस्त्रीणि अव्ययमिति दत्तमस्ति अत्र वाचस्पत्यं प्रातर् प्रातर् इति अस्ति प्रातर् इति अस्ति
मूलरूपम्
अस्य रेफस्य सकारः अभवत् अनन्तरं सोरि विसर्गः भवति
अस्तु अस्तु प्रातः अस्तु 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 अतः तत्र
तर्हि प्रातः
सूर्योदयादि अवधि बहु अवधिभिः मुहूर्तकाले च इति अस्ति प्रातःकालः
शुभ भगिनी
तर्हि प्रातः इत्यस्य अर्थः एव भाते इति
प्रभाते
न न न मार्निङ्ग् इति अस्ति अर्थः अस्ति खलु इन् द मार्निङ्ग् इति अर्थः नास्ति किन्तु तत्र प्रातः प्रातः इति तत् अव्ययमस्ति चेत् तत् तत्र सप्तमी वा द्वितीयविभक्ति वा सर्वं समीचीनम् इति वा
महोदय?
हा न न तत्र अहं चिन्तितवान् प्राशे मधुसूदन महोदय उक्तवान् तत् समीचीनम् इति तत्र क्रियाविशेषणम् इति प्रातर् प्रातः इति प्रातः इति क्रियाविशेषणं किन्तु तस्य अपि क्रियाविशेषणस्य अपि तत्र
द्वितीयविशेषणं भवति चेत् महोदय
द्वितीयविभक्तिरूपं स्वीकृतं खलु किन्तु अत्र सप्तमीविभक्तिरूपम् आवश्यकम् इति मन्ये अस्तु चिन्तनीयमस्ति हा
अस्तु महोदय अग्रिमं कुर्मः
अन्वेषणं करणीयमस्ति भगिनि किन्तु समीचीनः प्रश्नः अस्तु
प्रातः शब्दस्य विभक्तिरूपाणि सन्ति वा कदापि अहं तु विभक्तिरूपे न
अव्ययमस्ति चेत् तत्र चिन्ता नास्ति किन्तु तत्र क्रिया तत्र किं क्रियाविशेषणं क्रियापदस्य विशेषणं भवति न वा इति तत्र किञ्चित् क्लेशः अस्ति किन्तु इदानीं मास्तु तत्र केवलं चिन्तयामः तत् प्रातः इति अव्ययपदमस्ति तस्य प्रथमविभक्तिरूपं वा सप्तमविभक्तिरूपं वा समानं प्रातः एव अस्ति इति अतः तत्र तादृशं भवति किन्तु महोदय तत्र सायम् इति तादृशप्रयोगः भवति वा सायं विषये
महोदय अहं बहिः अस्मि इदानीम्
अस्तु अस्तु महोदय
क्षम्यतां महोदय
प्रातः
इति विभक्तिरूपं रूपाणि सन्ति महोदय प्रातः प्रातौ प्राताः
यदि तत् अव्ययमस्ति चेत् तत्र किं भगिनि तत्र
अव्ययं
तत् तस्य अर्थः किम् अर्थः भिन्नः भिन्नः भवेत्
हा प्रातः इति पदस्य अर्थभेदः प्रायशः अस्ति यत् अत्र दत्तमस्ति तद् प्रायशः प्रातः इत्युक्ते मार्निङ्ग् इति किन्तु हा द्रष्टव्यम् अस्तु भगिनि हा किन्तु तत्र हा अस्तु अपि सायम् इति तस्य विषये किं चिन्तनम् अत्र सायम् एव दत्तमस्ति खलु तत्र सायम् इति अस्तु अतः अग्रिमवर्गे अन्वेषणं कृत्वा आगच्छन्तु चर्चयामः
प्रातःकाले इति योजयामः सम्यक्
हा सत्यं सत्यं किन्तु यत् दत्तमस्ति सत्यमेव अस्तु अस्तु अग्रिमवर्गे एतस्य विषये चर्चा भवतु अस्तु
इदानीमपि अव्ययमस्ति महोदय
सायमपि अव्ययं वा
अव्ययमस्ति
अस्तु अतः प्रातः अव्ययं सायमपि अव्ययम् अस्तु चिन्ता नास्ति अत्र अस्तु धन्यवादः महोदय अस्तु अस्तु तर्हि अतः अत्र किम् अग्रे गच्छामः द्वितीय अभ्यासः तत्र कः पठति अस्तु अस्तु पठतु भगिनि
तः पर्यन्तम् इति योजयित्वा लिखत उदाहरणं द्वितीयाध्यायस्य पञ्चपञ्चाशत् तमश्लोकतः एकषष्टिः तमश्लोकपर्यन्तं स्थितप्रज्ञलक्षणमस्ति अनन्तरं द्वादश अध्यायस्य त्रयोदश श्लोकतः तम इति उपयोगं करणीयं वा विंशति
अग्रे तम इति भवति इति मन्ये
त्रयोदश श्लोकतः नवदश श्लोकपर्यन्तं भक्तलक्षणम् अस्ति
समीचीनं भगिनि अस्तु तर्हि अग्रे धन्यवादः भगिनि. अग्रे तत्र उमा मीनाक्षी भगिनी पठति वा अग्रे?
षोडशोऽध्यायः षोडशोऽध्यायस्य प्रथमश्लोकतः.
भगिनि षोडशाध्यायः खलु षोडश योगः अध्यायस्य
परन्तु भगवद्गीतायां तु षोडशोऽध्यायः इति लिखितमस्ति न प्रथमोऽध्यायः द्वितीयोऽध्यायः एवं लिखितमस्ति तदेव अहं वदामि.
षोडशोऽध्यायः अस्तु तत्र तत्र किं भवति तत्र अस्तु तत्र
विसर्गस्य
भवति विसर्गसन्धि इति अस्तु षोडशोऽध्यायः अस्तु षोडशः इति अस्ति इति कृत्वा अस्तु भगिनि अस्तु अस्तु
षोडशोऽध्यायस्य प्रथमश्लोकतः तृतीयश्लोकपर्यन्तं दैवीसम्पत्
उक्ता अस्ति समीचीनं भगिनि समीचीनम् अस्तु. अग्रे श्रीप्रिया भगिनि दशमाध्यायस्य
विंशतितमश्लोकतः एकचत्वारिंशत्तमश्लोकपर्यन्तं
श्लोकपर्यन्तं
ईश्वरस्य विभूतयः उक्ताः.
समीचीनं तत्र संख्याविषये पेज् 58 मध्ये पश्यन्तु तत्र कोष्टकम् अस्ति. अस्तु अग्रे मधुसूदन महोदय वदति वा?
एकादशाध्यायः एकादशोऽध्यायस्य दशमश्लोकः
दशमश्लोकतः
त्रयोदश श्लोकपर्यन्तं विश्वरूपदर्शनं भवति.
अस्तु अग्रे
महोदय त्रयोदशतमश्लोकपर्यन्तं न महोदय
इति तत्र
विंशति अनन्तरं
त्रयोदश श्लोकपर्यन्तम्
अत्र दशमश्लोकतः वा दशश्लोकतः तादृशं भवति वा
दशश्लोकतः दशम
अस्तु
एकादश
अत्र
पूर्णप्रत्ययान्तः इति अतः श्लोकः पुल्लिङ्गशब्दः दशमः पुल्लिङ्गम् यदा कथा अस्ति दशमी कथा इति भविष्यति
सत्यं भगिनि
दशमं पुस्तकं
सत्यं भगिनि. हा एतत् अग्रिमे भागे
गीतासोपानं द्वितीयभागे अस्ति.
हा सत्यं भगिनि. हा सत्यं. हा अत्र प्रथमभागः अस्मिन् पुस्तके किं सङ्ख्या इति विषयः, द्वितीयभागे द्वितीयपुस्तके तादृशरूपं तत्र पूर्णप्रत्यय प्रत्ययः
एकः. तर्हि एकः श्लोकतः तत् सम्यक् वा महोदय? एकः श्लोकतः
न तत्र प्रायशः प्रथमश्लोकतः इति.
ओ ओ
अतः एकः द्वे त्रीणि इति न, किन्तु प्रथम द्वितीया द्वितीयः तृतीयः इति तादृश तदेव. तदनन्तरं तम इति भवति.
पञ्च आरभ्य तम न पञ्च आरभ्य पञ्च पञ्चः न तत्र लिङ्गभेदः नास्ति खलु?
पञ्च अनन्तरं पञ्चनन्तरम् अस्ति. एतत् अग्रिमे पुस्तके पश्यामः.
किन्तु तद् भिन्नं खलु?
चत्वार चत्वारपर्यन्तं तत्र किं लिङ्गभेदः अस्ति रूपे?
न महोदय, मम प्रश्नः अस्ति चत्वारः चत्वारि चतस्रः तत् भिन्नं, चतुर्थः
सत्यं सत्यं चतुर्थः इति तद् भिन्नम् अस्ति, तत् सङ्ख्या नास्ति तत्र. तत्र चतुर्थः इति तत्र चतुर्थः चतुर्था इति तद् विशेषणं भवति, तत् विशेषणं भवति, लिङ्गभेदः भवति तत्र.
पञ्चमः षष्ठः तादृशं भवति वा?
हा सत्यं 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 भगिनि, तत्र विशेषणं तत्र लिङ्गभेदः भवति
भवति
सत्यं. अस्तु तर्हि तत्र केवलं तत्र अवधेयम् इति अस्ति, कोऽपि एकवारं तत् अथवा कापि एकवारं पठति चेत् विरमामः तत्र.
अहं पठामि महोदय.
अस्तु अस्तु भगिनि.
अवधेयं तः पर्यन्तम् इत्यस्य एतादृशाः प्रयोगाः अपि भवन्ति. हिमालयतः कन्याकुमारीपर्यन्तं भारतम् अस्ति. आरम्भतः अन्तपर्यन्तं भगवद्गीतां पठतु
इति. हा अतः केवलं समयविषये तः पर्यन्तम् इति प्रयोगः केवलं तस् अत्र एव अस्ति इति न, किन्तु प्रदेशस्य सन्दर्भे अपि तः पर्यन्तम् इति, भारतदेशस्य तत्र हिमालयतः कन्याकुमारीपर्यन्तम् इति, तत् तत्रापि तः पर्यन्तम् इति पदस्य प्रयोगः भवति इति. केवलं समयः अथवा कालः न, देशः कालः इति द्वयमस्ति खलु, स्पेस् टैम् इति. हा तत्र द्वयोः मध्ये अपि एतत् कर्तुं शक्नुमः तः पर्यन्तम् इति.
आरम्भतः
अन्तपर्यन्तं हा इति. समीचीनम्. अस्तु अन्यप्रश्नः अस्ति वा? तत्र प्रभाते प्रातः अपि सायम् इति विषये चर्चाम् अन्वेषणं कुर्वन्तु, अग्रिमवर्गे चर्चा भवति. अस्तु तर्हि विरमाम, अग्रिमवर्गे मिलामः. सर्वेभ्यो नमः, नमस्कारः.
धन्यवादः.
नमस्कारः भगिनी, धन्यवादः.